ఆదికం సమగ్రాణ్యపిసిద్ధ్యంతి లోకశంకామిమాం హరః కృత్వా నిమంత్రయామాస సర్వమేవమిదం శుభం స్తోత్రం వైచండికాయా స్తోతశ్చ గుహ్యం చకారసః సమాప్తిర్న చ పుణ్యస్యాతాయ్యథావన్నియంత్రణాః సోమిక్షేమమవాప్నోతి సర్వమేవ న సంశయః కృష్ణాయాం వా చతుర్దశ్యామష్టమ్యాం వా సమాహితః దదాతి ప్రతిగృహ్ణాతి నాన్యథైషా ప్రసీదతి ఇత్థం రూపేణ కీలేన మహాదేవేన కీలితం యో నిష్కీలాం విధాయైనాం నిత్యం జపతి సుస్ఫుటం ససిద్ధః సగణః సోపి గంధర్వో జాయతే వనే న చైవాప్యటరస్తస్య భయం క్వాపి జాయతే నాపమృత్యువశం యాతి మృతో మోక్షమవాప్నుయాత్ జ్ఞాత్వా ప్రారభ్య కుర్వేదాహ్య కుర్వాణో వినశ్యతి తదో జ్ఞాత్వైవ సంపన్నమిదం ప్రారభ్యతే బుధైః సౌభాగ్యాది చ యత్కించిత్ దృశ్యతే లలనాజనే తత్సర్వం తత్ప్రసాదేన తేన జాప్యమిదం శుభం శనైస్తు జప్యమానేస్మిన్ స్తోత్రే సంపత్తిరుచ్చకైః భవత్యేవ సమగ్రాపి తతః ప్రారభ్యమేవ తత్ ఐశ్వర్యం యత్ప్రసాదేన సౌభాగ్యారోగ్య సంపదః శత్రుహాని పరో మోక్షస్తూయతే సానకింజనైః భగవత్యా కీలక స్తోత్రం. రాత్రీతి సూక్తస్య పుషికర్షిః గాయత్రీ ఛందః రాత్రిర్దేవతా శ్రీజగదంబా ప్రీత్యర్థే సప్తశతీ పాఠాదౌ జపే వినియోగః. ఓం రాత్రే వ్యఖ్యదాయతి పూర్వత్రా దేవ్యా అక్షభిః విశ్వా అధిశ్రియోధితా పూర్వప్రామర్త్యా నివతో దేవ్యో ఉద్వతాః జ్యోతిషాబాధతే తమాః నిరుస్వసారమత్కృతోషసం దేవ్యా యతి అపేదోహాసతే తమాః సానో అద్యయస్య ఆభయం నితేయామన్న విక్ష్మహి వృక్షేన వాసతిం వయాః నిగ్రామాసో అవిక్షత నిపద్వంతో నిపక్షిణాః నిశ్యేనాసశ్చిదర్థినాః యావయాః ప్రజ్ఞామృకం యవయస్థేనమోర్మ్యే అథానః సుతరా ఆభవా ఉపామాపేపి శబ్దమకృష్ణం వ్యక్తమస్థితా ఉషారణే వాయాతయా ఉపాతేగా ఇవాకారం వృణీష్వదోహితర్దివః రాత్రిస్తో మన్న జిగ్యుషే ప్రథమచరిత్రస్య బ్రహ్మా ఋషిః గాయత్రీ ఛందః మహాకాళీ దేవతా నందాశక్తిః రక్తదంతికా బీజం అగ్నిస్తత్వం ఋగ్వేదస్వరూపం श्रीमहाकाली प्रीत्यर्थम् धर्मार्थम् जपे विनियोगः खड्गम् चक्रगदेषु चापपरिखान् शूलम् भुषुण्डीम् शिरः शङ्खम् सन्दधतीम् करैस्त्रिनयनाम् सर्वाङ्गभूषाराम् नीलाश्मद्युतिमास्य पाददशकाम् सेवे महाकालिकाम् यामस्तौत्स्वपिते हरौ कमलजो हन्तुम् मधुम् कैटभम् ॐ नमश्चण्डिकायै ॐ ऐं मार्कण्डेय उवाच सावर्णिः सूर्यतनयो यो मनुः कथ्यते स्तमः निशामय तदुत्पत्तिम् विस्तराद्गदतो मम महामायानुभावेन यथा मन्वन्तराधिपः स बभूव महाभागः सावर्णिस्तनयोरवेः स्वारोजिषेन्तरे पूर्वम् तैत्रवंशसमुद्भवः सुरथो नाम राजा भूत्समस्ते क्षितिमण्डले तस्य पालयतः सम्यक् प्रजापुत्रानिवोरसान् बहो पुष्यत्रवो भूपाः कोलाविध्वंसिनस्तदा तस्य तैरभवद्युद्धमतिप्रबलदण्डिनः न्यूनैरपि सतैर्युद्धे कोलाविध्वंसिभिर्जितः ततः स्वपुरमायातो निजदेशाधिपोऽभवत् आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः कोशो बलम् चापहृतम् तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतस्वाम्यः स भूपतिः एकाकी हयमारुह्य जगामगहनम् वनम् स तत्राश्रममद्राक्षी द्विजवर्यस्य मेधसः प्रशान्तश्वापदाकीर्णम् मुनिशिष्योपशोभिरम् तस्थौ कञ्चित् सकालम् च मुनिना तेन सत्कृतः इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे सोऽचिन्तयत्तदा तत्र मम त्वाकृष्टमानसः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हि तत् मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यतेन वा न जाने स प्रधानो मे शूरो हस्ते सदा मदः मम वैरिवशम् यातः कान्भोगानुपलप्स्यते ये ममानुगता नित्यम् प्रसादधनभोजनैः अनुभृतिम् ध्रुवन्तेत्या कुर्वन्त्यन्यमहे भृताम् असम्यग्ययशीलैस्ते कुर्वद्भिः सततम् व्ययम् सञ्चितः सोऽति दुःखेन क्षयम् कोशो गमिष्यति चान्यच्च सततम् चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकम् ददर्श सः स पृष्टस्तेन कस्त्वम् भो हेतुश्चागमनेऽत्र कः स शोक इव कस्मात्त्वम् दुर्मना इव लक्ष्यसे इत्याकर्ण्यवचस्तस्य भूपतेः प्रणयोदितम् प्रत्युवाच सतम् वैश्यः प्रश्रयामनतो नृपम् वैश्य उवाच समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनाङ्कुले पुत्रधारेर्निरस्तश्च धनलोभादसाधुभिः विहीनश्च धनैर्धारैः पुत्रैरादाय मे धनम् वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः सोऽहम् न वेद्मि पुत्राणाम् कुशलाकुशलात्मिकाम् प्रवृत्तिम् स्वजनानाम् च धाराणाम् चात्र संस्थितः किन्नु तेषाम् गृहे क्षेममक्षेमम् किन्नु साम्प्रतम् कथम् ते किन्नु सद्वृत्ता दुर्वृत्ता किन्नु मे सुता राजोवाच यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनैः तेषु किम् भवतः स्नेहमनुबध्नाति मानसम् वैश्य उवाच एवमेतद्यथा प्राह भवानस्मद्गतम् वचः किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्य पितृस्नेहम् धनलुब्धैर्निराकृतः परिस्वजनः गञ्जाहार्दितेष्वेव मे मनः किमेतन्नाभिजानामि जानन्नपि महामते यत्प्रेम प्रवणम् चित्तम् विगुणेष्वपि बन्धुषो तेषाम् कृते मे निःश्वासो धौर्मनस्यम् च जायते करोमि किम् यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् मार्कण्डेय उवाच ततस्तौ सहितौ विप्रातम् मुनिम् समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः कृत्वा दुतौ यथा न्यायम् यथार्हम् तेन संविदम् उपविष्टो गता काश्चिश्चक्रतुर्वैश्यपार्थिवौ राजोवाच भगवम् स्त्वामहम् प्रष्टुमिच्छाम्येकम् वदस्व तत् दुःखाय यन्मे मनसः स्वचित्ताय तताम् विना मम त्वम् गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तमा अयम् च निकृतः पुत्रैर्धारैर्भृत्यैस्तथोज्झितः स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति एवमेष तथा हञ्च द्वावप्यत्यन्तदुःखितौ दृष्टदोषेऽपि विषये मम त्वाकृष्टमानसौ तत्किमेतन्महाभागायन्मोहो ज्ञानिनोरपि ममास्य च भवत्येषा विवेकान्धस्य मूढता ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे विषयाश्च महाभागा यान्ति चैवम् पृथक् पृथक् दिवान्ता प्राणिनः केचिद्रात्रा बन्धास्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनो मनुजाः सत्यम् किन्नु तेन हि केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानम् च तन्मनुष्याणाम् यत्तेषाम् मृगपक्षिणाम् मनुष्याणाम् च यत्तेषाम् तुल्यमन्यत्तथोभयोः ज्ञानेऽपि सति पश्येतान् वरङ्गान् चावचञ्चुषो कणमोक्षादृतान् मोहात् पीड्यमानानपि क्षुधा मानुषा मनुजव्याघ्रासाभिलाषास्सुतान् प्रदे लोभात् प्रत्युपकाराय नन्वेतान् किम् न पश्यसे तथापि ममता वर्ते मोहकर्ते निपातिताः महामाया प्रभावेण संसारस्थितिकारिणा तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः महामाया हरेश्चैषा तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवतेः सा वरादाकृष्य मोहाय महामाया प्रयच्छति तया विसृज्यते विश्वम् जगदे तच्चराचरम् सैषा प्रसन्ना वरदा नृणाम् भवति मुक्तये सा विद्या परमा मुक्तेर्हेतुभूता सनातनी संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी राजोवाच भगवन् का हि सा देवी महामायेति याम् भवान् ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किम् द्विजा यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वम् श्रोतुमिच्छामि त्वत्तो ब्रह्मविदाम् वरा ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदम् ततम् तथापि तत्समुत्पत्तिर्बहुधा श्रूयताम् मम देवानाम् कार्यसिद्ध्यर्थमाविर्भवति सा यदा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते योगनिद्रा यदा विष्णुर्जगत्ये कारणमीकृते आस्तीर्यशेषमभजत् कल्पान्ते भगवान् प्रभो तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुम् ब्रह्माणमुद्यतौ सनाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तम् च जनार्दनम् तुष्टावयोगनिद्राम् तामेकाग्रहृदयस्थितः विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवतीम् विष्णोरतुलाम् तेजस प्रभो ब्रह्मोवाच त्वम् स्वाहा त्वम् स्वधा त्वम् हि वषट्कारस्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः त्वमेव सन्ध्या सावित्री त्वम् देवि जननी परा त्वयैतद्धार्यते विश्वम् त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा विसृष्टौ सृष्टिरूपा त्वम् स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवति महादेवी महेश्वरी प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वं श्रेस्त्वमे